ओम नमो भगवते वासुदेवाय। अथ नवमोऽध्यायः। ब्राह्मण उवाच। परिग्रहो हि दुःखाय यद्यत् प्रियतमं नृणाम् अनन्तं सुखमाप्नोति तद्विद्वान् यस्त्वकिञ्चनः। सामिषं कुररं जघ्नुर्बलिनो ये निरामिषाः तदामिषं परित्यज्य स सुखं समविन्दत। न मे मानावमानौस्तो न चिन्ता गेहपुत्रिणाम्। आत्मक्रीडा आत्मरतिर्विचरामीह बालवत्। द्वावेव चिन्तया मुक्तौ परमानन्द आप्लुतौ। यो विमुग्धो जडो बालो यो गुणेभ्यः परङ्गतः। क्वचित् कुमारी स्वात्मानं वृणानान् गृहमागतान् स्वयं तानर्हयामास क्वापि या ते सुबन्धुषु। तेषामभ्यवहारार्थं शालीन् रहसि पार्थिव। अवगनन्त्या प्रकोष्ठस्थाश्चक्रुः शङ्खा स्वनं महत्। सा तज्जुगुप्सितं मत्वा महती व्रीडिता ततः। बभञ्जैकैकशः शङ्खान् द्वौ द्वौ पाण्योरशेषयत्। उभयोरप्यभूत् घोषो यवघ्नन्त्या स्म शङ्खयोः। तत्राप्येकं निरभिदेकस्मान्नाभवध्वनिः। अन्वशिक्षमिमं तस्या उपदेशमरिन्दम। लोकाननुचरन्नेतान् लोकतत्त्वविवित्सया। वासे बहूनां कलहो भवेद्वार्ता द्वयोरपि। एक एव चरेत् तस्मात् कुमार्या इव कङ्कणः। मन एकत्र संयुज्याज्जितस्वासो जितासनः। वैराग्याभ्यासयोगेन ध्रियमाणमतन्द्रितः। यस्मिन्मनो लब्धपदं यदेतच्छनैः शनैर्मुञ्चति कर्मरेणून्। सत्त्वेन वृद्धेन रजस्तमश्च विधूय निर्वाणमुपैत्य निन्धनम्। तदैवमात्मन्यवरुद्धचित्तो न वेद किञ्चित् बहिरन्तरं वा। यथेशुकारो नृपतिं व्रजन्तमिसौ गतात्मा न ददर्श पार्श्वे। एकचार्यनिकेतः स्यादप्रमत्तो गुहाशयः। अलक्ष्यमाण आचारैर्मुनिरेकोऽल्पभाषणः। गृहारम्भोऽति दुःखाय विफलश्चा ध्रुवात्मनः। सर्पः परकृतं वेश्म प्रविश्य सुखमेधते। एको नारायणो देवः पूर्वसृष्टं स्वमायया। संवृत्य कालकलया कल्पान्त इदमीश्वरः। एक एवाद्वितीयो भूदात्मा धारोऽखिलाश्रयः। कालेनात्मानुभावेन साम्यं नीतासु शक्तिषु। सत्त्वादिष्वादिपुरुषः प्रधानपुरुषेश्वरः। परावराणां परम आस्ते कैवल्यसङ्गितः। केवलानुभवानन्द सन्दोहो निरुपाधिकः। केवलात्मानुभावेन स्वमायां त्रिगुणात्मिकां संक्षोभयन् सृजत्यादौ तया सूत्रमरिन्दम। तामाहुः त्रिगुणव्यक्तिं सृजन्तीं विश्वतो मुखम्। यस्मिन् प्रोतमिदं विश्वं येन संसरते पुमान्। यथोर्णनाभिहृदया दूर्णां संतत्य वक्त्रतः। तयाभिहृत्य भूयस्तां रसत्येवं महेश्वरः। यत्र यत्र मनो देही धारयेत् सकलं धिया। स्नेहाद्वेषाद् भयाद् वापि याति तत्तत्स्वरूपताम्। कीटः पेशस्कृतं ध्यायन् कुड्यां तेन प्रवेशितः। याति तत्सात्मतां राजन् पूर्वरूपमसन्त्यजन्। एवं गुरुभ्य एतेभ्य एषा मे शिक्षिता मतिः। स्वात्मोपशिक्षितां बुद्धिं शृणु मे वदतः प्रभो। देहो गुरुर्मम विरक्ति विवेक हेतुर्बिभ्रत्स्म सत्त्वनिधनं सततार्त्युदर्कम्। तत्त्वान्यनेन विमृशामि यथा तथापि पारक्यमित्यवसितो विचराम्यसङ्गः। जायात्मजार्थ पशुभृत्य गृहाप्तवर्गान् पुष्णाति यत्प्रियचिकीर्षु तया वितन्वन्। स्वान्ते सकृच्छमवरुद्धधनः स देहः। सृष्ट्वास्य बीजमवसीदति वृक्षधर्मा। युवैकतो मुमपकर्षति कर्हि तर्षा। शिश्नोऽन्यतस्त्वगुदरं श्रवणं कुतश्चित्। घ्राणोऽन्यतश्चपलदृक् क्वच कर्म शक्तिर्। बह्व्यः सपत्न्यैव गेहपतिं लुनन्ति। सृष्ट्वा पुराणि विविधान्यजयात्मशक्त्या। वृक्षान् सरीसृपपशून् खगदंश मत्स्यान्। तैस्तैरतुष्टहृदयः पुरुषं विधाय ब्रह्मावलोकधिषणम् उदमाप देवः। लब्ध्वा सुदुर्लभमिदं बहु सम्भवान्ते। मानुष्यमर्थदमनित्यमपीह धीरः। तूर्णं यते तनपते दनुमृत्यु यावन् निःश्रेयसाय विषयः खलु सर्वतः स्यात्। एवं संजात वैराग्यो विज्ञानालोक आत्मनि विचरामि महीमेतां मुक्त संगो नहं कृतिः। नैकस्मात् गुरोर्ज्ञानं सुस्थिरं स्यात् सुपुष्कलं ब्रह्मैतदद्वितीयं वै गीयते बहुधर्षिभिः। श्री भगवानुवाच इत्युक्त्वा स यदुं विप्रस्तमामन्त्र्य गभीरधीः। वन्दितोऽभ्यर्थितो राज्ञा ययौ प्रीतो यथागतम् अवधूतवचः श्रुत्वा पूर्वेषां नः स पूर्वजः सर्वसङ्गविनिर्मुक्तः समचित्तो बभूवः। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायाम् एकादशस्कन्धे नवमोऽध्यायः श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणां भोजे रतिः स्यादनपायिनी।